इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। अथ वार्ताः। फ्रांस देशस्य यात्रावधौ स्वकीय प्रवासस्य चरमे सोपाने प्रधानमन्त्री नरेन्द्र मोदी ह्यः रात्रौ पेरिस नगरं सम्प्राप्तवान्। पेरिस नगरे आगमन समये विश्रांति निलये एकत्रिताः भारतीय समुदायस्य सदस्याः उत्साहपूर्वकं तदीय भव्यं स्वागतम् अकुर्वन्। अद्य प्रधानमन्त्री प्रमुख विपणीनां मुख्य कार्यकारिभिः सह चर्चां करिष्यति। तदनन्तरं सः यूरोप महाद्वीपस्य प्रमुख प्रौद्योगिकी मञ्चे विवाटेक शिखर सम्मेलने भागं ग्रहीष्यति, तत्र च स्वसम्बोधनं प्रदास्यति। सायंकाले असौ एकस्मिन् सामुदायिक कार्यक्रमे भारतीय प्रवासिभिः सह संवादं विधास्यति। G7 देशैः वैश्विक स्थिरतायाः सुरक्षा सहयोगस्य अथ सीमापार संघटित अपराध निवारणस्य उद्देश्येन विभिन्नाः प्रमुखाः घोषणाः विहिताः। मुख्य वक्तव्ये नेतृभिः अमेरिका ईरान देशयोर्मध्ये संजातं सन्धि निश्चयम् अभिनन्दितम्। अन्य घोषणापत्रे G7 देशैः मादक द्रव्यस्य अवैध कार्यं निरोद्धुं संकल्पो विहितः। अस्मिन् अभियाने ब्राजील दक्षिण कोरिया देशौ अपि सहमतिं प्रदर्श फ्रांस देशस्य एवियन नगरे चलायमाने G7 शिखर सम्मेलने प्रधानमंत्री नरेन्द्र मोदी सर्वहितकारी सतत आर्थिक विकासः इत्याख्ये मुख्य विषये आयोजितायां महत्वपूर्ण कार्यगोष्ठ्यां भागं भजते। सत्रेऽस्मिन् G7 देशाः सहभागी राष्ट्राणि अन्ताराष्ट्रिय मुद्रा कोषस्य OECD इत्यस्य च प्रतिनिधयः उपस्थिताः सन्ति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः अद्यारभ्य मध्यप्रदेशस्य ओडिसायाः च पञ्चदिवसीयायां यात्रायाम् अस्ति। प्रथमदिवसे सा मध्यप्रदेशस्य बैतूल नगरे आध्यात्मिक जागृत्या जनजातीय समाजस्य सशक्तिकरण कार्यक्रमे भागं ग्रहीष्यति। द्वितीय दिवसे सा ओडिसायाः रायरंगपुरे चिकित्सा शिविरस्य ग्रामीण जल आपूर्ति परियोजनायाः च उद्घाटनं विधास्यति। तृतीय दिवसे राष्ट्रपतिः प्रधानमन्त्रिणा नरेन्द्र मोदिना सह पहाड़पुरे कौशल केन्द्रस्य निरीक्षणं करिष्यति, सहैव रायरंगपुरे जनसभां च संबोधयिष्यति। चतुर्थ दिवसे सा जून मासस्य 21 दिनांके जबलपुरे अन्ताराष्ट्रिय योग दिवसोत्सवे भागं ग्रहीष्यति, सहैव रानी दुर्गावती विश्वविद्यालयस्य दीक्षांत समारोहे अध्यक्षतां विधास्यति। यात्रायाः चरमे सोपाने सा क्यूनो राष्ट्रिय उद्याने सहरिया जनजातीय सदस्यैः चीता अन्वेषकैः च सह संवादं विधास्यति। संयुक्त राष्ट्र संघस्य खाद्य संस्थाभ्यां खाद्य एवं कृषि संघटनेन अथ विश्व खाद्य कार्यक्रमेण च विज्ञापितं यत् आगामिषु मासेषु युद्ध जलवायु परिवर्तन धन न्यूनता कारणात् विश्वस्य 13 प्रमुख क्षेत्रेषु बुभुक्षा संकटम् अधिकं गभीरं भविष्यति। संयुक्त प्रतिवेदनस्य अनुसारं सम्प्रति जगति 66.2 कोटि जनाः तीव्र खाद्यासुरक्षया पीडिताः सन्ति। अस्याम् सूच्यां सुडान, दक्षिण सुडान, यमन, फिलिस्तीन, नाइजीरिया, सोमालिया चेत्यादयः देशाः अत्यधिक संकटग्रस्ताः सन्ति। प्रतिवेदने चिन्ता प्रदर्शिता यत् 20-22 तः परं मानवीय सहायतायै प्राप्यमाणं धनं 60% न्यूनं जातम्। WFF संस्थायाः कार्यवाहक निदेशकः कार्ल स्काउ महोदयः अवोचत् यत् यदि शीघ्रं किमपि कार्यान्वयनं न क्रियते तर्हि कोटिशः जनाः दुर्भिक्षस्य गर्ते पतिष्यन्ति। हॉकी क्रीडायां नीदरलैंड देशस्य राइडरहेम नगरे प्रचल्यमाणायाः FIH प्रो लीग स्पर्धा मालिकायाः द्वन्द्वे भारतीय पुरुष हॉकी दलेन जर्मनी दलं 3-1 इत्यांकांतरालेन पराजितम्। इति वार्ताः।